एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्ता गठबन्धनस्य दलानाम् गतदिवसीयोपवेशे कस्मै दलाय को मन्त्रालयो देयः इत्यस्मिन् विषये विमर्शनम् अभवत्। बाल्वा टारावर्तिनी प्रधानमन्त्री निवासे उपविष्टे तस्मिन् उपवेशे कस्मै दलाय को मन्त्रालयो दातव्यः इत्यस्मिन् विषये निर्णेतुम् प्रयतितम् सदपि सहमतिः अवशिष्टास्तीति प्रधानमन्त्रिणः संचार संयोजकः सूर्यकिरण शर्मा अज्ञापयत्। उपवेशे मन्त्रालयानाम् निर्धारणस्य विषये अतिरिक्त विमर्शनस्य आवश्यकत्वात् अद्य उपवेश्यमाने उपवेशे विषयोऽसौ निर्णीयते इति च संचार संयोजकः शर्मा अगदत्। उपवेशे प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा, उपसभापति पूर्णबहादुर खड्का च, जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादव, गठबन्धनस्य दलानाम् अन्य शीर्ष नेतारश्च सहभागिनः आसन्। नेपाली कांग्रेस दलेन आगामिनो वैशाख मासस्य दशमी दिवसे सम्पत्स्यमानाय उपनिर्वाचनाय दलस्य प्रत्याशिनौ निर्धारितौ स्तः। दलस्य केन्द्रीय कार्य सम्पादन समिति ह्य सानेपावर्तिनी केन्द्रीय कार्यालय उपविष्टेन उपवेशेन तनौ जनपदस्य प्रथम क्षेत्रे दलस्य केन्द्रीय सदस्यम् गोविन्द भट्टराई इत्यमुम्, चितवन जनपदस्य द्वितीय क्षेत्रे एतज्जनपदस्य पूर्व दल सभापतिम् जितनारायण श्रेष्ठम् च प्रत्याशिनौ निर्धारयितुम् निर्णीत मिति उपवेशस्य पश्चात् दल प्रवक्ता डाक्टर प्रकाश शरण महत अज्ञापयत्। प्रवक्ता डाक्टर महत बारा जनपदस्य द्वितीय क्षेत्रस्य सन्दर्भे परश्व चैत्रस्य एकोनविंशे दिवसे उपवेक्ष्यमाणेन केन्द्रीय कार्य सम्पादन समितेः केन्द्रीय संसदीय समितेश्च उपवेशेन निर्णेष्यते इत्यवदत्। निर्वाचन आयोगेन आगामिनो वैशाख मासस्य दशमी दिवसे सम्पत्स्यमानाय प्रतिनिधि सभायाः सदस्यस्य उपनिर्वाचनाय मुख्य निर्वाचनाधिकृताः नियुक्ताः सन्ति। आयोगेन स्वचैत्रस्य अष्टादश दिवसतः क्रियान्वयनत्वेन इमे मुख्य निर्वाचनाधिकृताः नियुक्ताः वर्तन्ते। उपनिर्वाचनाय अस्यैव चैत्रस्य विंशे दिवसे प्रत्याशितायाः मनोनयन पत्र पञ्जीकरणस्य कार्यक्रमो वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति उद्यमशीलता वर्तमान आवश्यकता वर्तते। कृषि वन विज्ञान विश्वविद्यालयस्य तृतीयं दीक्षान्त समारोहं गतदिने चितवन जनपदे सम्बोधयन् प्रधानमन्त्री प्रचण्ड अगदत् अनुसन्धानेन नवीनतम प्रविधिं विकसय्य उत्पादनोत्पादकत्वयोर्वृद्धि विधेया। प्रधानमन्त्री प्रचण्ड विश्वविद्यालयेन विकसितस्य प्रविधेः प्रयोगेण कृषकाणां जीवनस्तरस्य उन्नयनं वर्तमानावश्यकता अस्ति उदैरयत्। प्रधानमन्त्री प्रचण्ड कृषि विश्वविद्यालय त्रिभुवन विश्वविद्यालययोः स्वामित्व विवाद समाहितोऽस्ति इदानीं क्रियान्वयनस्य चरणे अस्तीति अज्ञापयत्। दीक्षान्त समारोहे स्नातक स्नातकोत्तर विद्यावारिधि स्तराणां 85,000 विद्यार्थिनः दीक्षिताः वर्तन्ते। ह्यैव भरतपुर विमानस्थलस्य नूतन विमानस्थल कार्यालय भवनस्य विमानस्थल विस्तारस्य च शिलाम् विन्यसन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड देशे अतःपरं राजनीतिकं स्थायित्वं भविष्यतीति अवोचत। प्रधानमन्त्री प्रचण्ड सम्पूर्णं राष्ट्रम् एकताबद्धं कृत्वा विकास समृद्धि प्रति उन्नेतुम् आत्मना प्रवर्तितमस्तीति असूचयत्। भिन्न प्रसंगे प्रधानमन्त्री प्रचण्ड चितवन जनपदस्य अन्तर्राष्ट्रिय क्रिकेट क्रीडा रंगशालायाः समस्या द्वित्र सप्ताहाभ्यन्तरे समाधास्यते, निर्माण कार्यम् अग्रे वर्धिष्यते इति च अबोधयत। कार्यक्रमे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री सुदन किराती सर्वकारः ग्रामीण स्तरेऽपि उड्डयन सेवायाः संचालनस्य योजनायां वर्तते इति अज्ञापयत्। राजनीतिक दलानां प्रमुख सचेतक पदीयैः नेतृभिश्च नागरिकता विधेयक मानेतुम् अतःपरं विलम्बनं न विधेयमिति बलं प्रदत्तं वर्तते। नागरिकता विधेयकस्य सम्बन्धे राजनीतिक दलानां प्रमुख सचेतक पदीयैः नेतृभिश्च स ह्य काष्ठमण्डपे विहिते अन्तर्क्रिया कार्यक्रमे प्रमुख सचेतक पदीयैः नेतृभिश्च यथाशीघ्रं नागरिकता विधेयकम् आनीय पारित कर्तव्यमिति बलं प्रदत्तम् आसीत्। कार्यक्रमे नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीय रमेश लेखक, नेकपा एमाले दलस्य नेता ऋषिकेश पोखरेल, नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीय हितराज पाण्डे चेत्यादयो नेतार, नागरिकता विधेयकस्य शीघ्रं पारितीकरणस्य विषये विचारं व्यक्तवन्तः। राष्ट्रिय सभाया ह्यस्तनोपवेशे विभिन्नानि चत्वारि सांविधानिक निकायानां वार्षिक प्रतिवेदनानि प्रस्तुतानि सन्ति। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्री रेखा शर्मा गतार्थिक वर्षीयाणि थार्वायोगस्य चतुर्थं वार्षिकं प्रतिवेदनम्, राष्ट्रिय समावेशायोगस्य चतुर्थं वार्षिक प्रतिवेदनम्, राष्ट्रिय मानवाधिकार आयोगस्य वार्षिकं प्रतिवेदनम्, आदिवासी जनजाति आयोगस्य तृतीयं वार्षिक प्रतिवेदनम् च उपवेशे प्रस्तौत। एवमेव उपवेशेन राष्ट्रिय मर्यादया सम्बद्धम् एतद् विक्रम वर्षीयं विधेयकम् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषितं वर्तते। तत्पूर्वं विशेष समये सांसदाः सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणं व्यदधुः। सांसदाः चक्रवृद्धि धनपीडितानां समस्या तत्कालं समाधातव्या, शान्ति प्रक्रियायाः अवशिष्ट कार्याणि संक्रमणकालिक न्यायस्य सिद्धान्तस्य आधारेण निरूपणीया, महार्घस्य नियन्त्रणं विधेयम्, कृषकेभ्य मलबीज जातस्य व्यवस्था विधेयात्, संघीय सर्वकारीय सेवा अधिनियम क्रियान्वेतव्यश्चेति विषयेषु सर्वकारस्य ध्यानम् आकर्षितवन्तः। राष्ट्रिय सभाया अपरोपवेश सेवा चैत्रस्य एकविंशे दिवसे मंगलवासरे दिवा एकवादने वस्ता। अस्य वर्षस्य एसीई नामिका माध्यमिक शिक्षा परीक्षा अद्य प्रारभमाणा वर्तते। परीक्षायै अशेषपूर्व कार्यं प्रपूरितमस्ति। अद्य प्रातः अष्टवादनतः आराष्टम युगपदेव अनिवार्यस्य आंग्ल भाषा विषयस्य परीक्षा प्रारभते इति राष्ट्रिय परीक्षा समिति अध्यक्ष महाशम शर्मा ज्ञापयति। असौ सर्वेषां परीक्षा केन्द्राणां कृते केन्द्राध्यक्षाणां नियुक्तेः सुरक्षा व्यवस्थायाः जनशक्ति परिचालनस्य प्रश्नपत्रोत्तर पुस्तिका प्रापणस्य च निखिलानि कार्याणि सम्पन्नानीति असूचयत। एतदीयायां परीक्षायां सहभागितायै अस्मिन् वर्षे समग्रतः लक्ष चतुष्टयेन चतुरशीत्याशास्रैः सप्तविंशत्यधिक द्विशतेन च जनैः परीक्षावेदन प्रपत्राणि प्रस्तुतानीति राष्ट्रिय परीक्षा समिति ज्ञापयति। निर्भयं सविश्वासं च परीक्षायां सहभागिनो भवितुं परीक्षा समित्या विद्यार्थिनः अनुरुद्धाः वर्तन्ते। समित्या ऐषम जापान देशेऽपि माध्यमिक शिक्षा परीक्षा केन्द्रम स्थापितं वर्तते। नेपालात् वृत्तिपार्जनाय जापान देशं गतानां नेपालीनां चतुर्दश सन्ततयः जापान देशादेव परीक्षां लिखन्ति। अद्य प्रारभमाणा एषा माध्यमिक शिक्षा परीक्षा अस्यैव चैत्रस्य एकोनत्रिंशं दिवसं यावत् सञ्चालिता। राष्ट्रपतिः रामचन्द्र पौडेलः कथयति पशुपति दर्शनाय आगतानां भक्तजनानां धार्मिक पर्यटकानां च सौविध्याय आवश्यकानां पूर्वाधाराणां निर्माणं ध्यातव्यम्। पशुपतेः वनकाली क्षेत्रे निर्मितम् आध्यात्मिकोद्यानं पूर्वेद्योद्घाटयन् राष्ट्रपतिः पौडेलः अवोचत् पशुपत क्षेत्रे स्वच्छ पेयजल शौचालय सूचना पट्टिका प्रभृतीनाम् आधारभूत सौविध्यानां पूर्वाधाराणां निर्माणार्थं ध्यातव्यम्। राष्ट्रपति पौडेलः अब्रवीत् मन्दिरम् आगताः पर्यटकाः पौरस्त्य सभ्यता संस्कृत्योः अध्ययनाय च समायान्तीति हेतोः एतस्मिन् क्षेत्रे निर्मीयमाणानां भौतिक संरचनानां पुरातात्विक महत्वं च विचारणीयम्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा दूरसञ्चाराधिनियमस्य परिमार्जनाय आत्मना प्रवर्तितमस्ति इति सूचयति। संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते मन्त्रालयस्य सचिवस्य डाक्टर वैकुण्ठ हरियालस्य प्रस्थापनाभियान कार्यक्रमे मन्त्री शर्मा दूरसञ्चाराधिनियमस्य परिमार्जनस्य आवश्यकतां प्रादर्शयत। सचिवः डाक्टर अरियालः प्रधानमन्त्री मन्त्री परिषदः कार्यालये स्थानान्तरितो वर्तते। रेडियो नेपाल त्रिसप्ततितम वार्षिकोत्सवस्य अवसरे गतदिने शास्त्रीय संगीत सम्मेलनम् आयोजयत। सम्मेलनमिदं शुभारम्भमाण रेडियो नेपालस्य कार्यकारी निर्देशक बुद्धिबहादुर केसी नेपालतम संवर्धयन अस्ति इति अभासत। इति समाचाराः।